पुष्पेभ्यो धृतं दुग्धात्रसर्पयः एवं हि सर्ववेदानां गायत्री सार उच्यते गायत्र्यास्तु परा नास्ति शोधनं पापकर्मणां मा व्यावृते संयुक्ता प्रणवेन च संजपेत् परन्तपः गायत्री समं चाप्य नव्यावृति समं भूतं गायत्री वेदजननी गायत्री पापनाशनी गायत्र्यास्तु परा नास्ति दिविजेह च पावनम् केशवात्परः गायत्र्यास्तु परं ज्याप्य न भूतं न भविष्यति एकाक्षरं परं ब्रह्म प्राणायामं परं तप सावित्र्यास्तु परा नास्ति पावनं परमं श्रुतम् स्मृते मननात् मोक्षमाप्नोति चतुर्वर्गमयो भवेत् नित्ये नैमित्तिके कामे तृषीये तपोवर्धने गायत्र्यास्तु परा नास्ति इह लोके परत्र च यदक्षरैव संसिद्धेः स्पर्धते ब्राह्मणोत्तमः हरिशङ्कर कञ्जोऽर्थ सूर्यचन्द्र हुतासनैः समुपस्थिते दशसहस्रकाभ्यासो गायत्र्याः शोधनं परं मोक्षाय च मुमुक्षूणां श्रीकामानां श्रिये तदा विजयाय युयुत्सूनं याहितानां अरोगकृत् Thank you. स्वर्गाय नागमिच्छताम् पशुभ्यः पशुकामानां पुत्रेभ्यः पुत्रकामिनां क्लेशितां शोकसान्त्यर्थं ऋणां शत्रुभयाय च पापेन पद्मपत्रमीवाधत गायत्री ध्यानपूतस्य कलं नाधति शोणसी एव किञ्चिष युक्तस्य विविध अतिपापकम् वेदकामिनां रविणाय दरिद्राणां पापिनां पापशान्तये गायत्रीमेव योग्नात्वा सम्यगुच्चरते पुनः इहा मुद्रता पूज्यो सौ ब्रह्मलोकमा